शतमानं भवति शतायो पुरुषस्यतेन्द्रिय आयुष्येवेन्द्रिजे प्रतितिष्ठति।
என்றும் ஆனந்த